इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचको निक्षितः शास्त्री। आदौ मुख्यवार्ताः। वर्तमान वर्षस्य वित्त संकल्पना पत्रस्य विषये संसदः उभयोः सदनयोः पुनः चर्चा समारब्धा। प्रधानमन्त्री नरेन्द्र मोदी श्वः कारगिल विजय दिवसस्य अवसरे कारगिल युद्ध स्मारकं गमिष्यति। विदेशमन्त्री डॉ एस जयशंकरः आसियान संघटन सभासु भागं ग्रहीतुं त्रिदिवसीय यात्रायै लाओस नगरं प्राप्तवान्। भारतीय ऋतुविज्ञान विभागेन उक्तमस्ति यत् देशस्य पश्चिम मध्य भागेषु तीव्र वर्षायाः संभावना। अपि च एशिया चषक क्रिकेट प्रतियोगितायाः उपान्तचक्रयोः भारतं बांग्लादेशं विरुध्य तथा च श्रीलंका पाकिस्तानं विरुध्य क्रीडिष्यति। अद्य संसदः उभयोः सदनयोः वित्तसंकल्पना पत्रस्य विषये उभयोः सदनयोः चर्चा समारब्धा। संसदीय कार्याणां मन्त्री किरेन रिजिजुः अद्य विपक्षनेतारः देशस्य जनादेशस्य अपमानं कुर्वन्ति इति आरोपं कृतवान्। नवदिल्लीनगरे पत्रकार सम्मेलनं सम्बोधयन् श्री रिजिजुः अवदत् यत् देशः द्रष्टुमिच्छति यत् वित्तसंकल्पना पत्र विषये चर्चा उत्तमरीत्या सार्थकरूपेण भवति न वा इति। सः एवमपि अवदत् यत् केषाञ्चन दलानां नेतारः यथा टिप्पण्यः कृतवन्तः तथा च तेषां भाषणानि सदनस्य गौरवं न्यूनीकृत्य सदनम् अपमानितम्। सः विपक्षदलेभ्यः जनानां जनादेशस्य आदरं कर्तुम् आवाहनं कृतवान्। प्रधानमन्त्रिणः भाषणांशान् समुद्धरन् श्रीरिजिजुः उक्तवान् यत् निर्वाचनानि अधुना समाप्तानि सन्ति, विकसित भारतस्य दिशि सर्वैः कार्यं कर्तुम् प्रेरितैर्भाव्यमिति। केन्द्रीय वित्त संकल्पना पत्रस्य विषये रचनात्मक चर्चायां च सर्वेषां ध्यानं भवेत् इति सः उक्तवान्। सः आरोपितं यत् विपक्षनेतारः संकल्पना पत्रस्य विषये किमपि न वदन्ति, परन्तु ते केवलं राजनीतिकरणे एव प्रवृत्ताः सन्ति। संसदीय कार्याणां मन्त्री उक्तवान् यत् अस्मिन् सत्रे केवलं आयव्यय प्रपत्रस्य विषये चर्चा कर्तव्या, कृषकाणाम् आदिवासिनां च कृते निर्मितस्य वित्तसंकल्पना प्रपत्रस्य प्रावधानानां चर्चां कर्तुं विपक्षस्य पलायनस्य विषये अपि सः प्रश्नं कृतवान्। प्रधानमन्त्री नरेन्द्र मोदी श्वः कारगिल विजय दिवसस्य अवसरे कारगिल युद्ध स्मारकस्य भ्रमणं करिष्यति। सः कर्तव्यपथि आत्मबलदानं कृतवद्भ्यः सैनिकेभ्यः श्रद्धाञ्जलिं समर्पयिष्यति। श्रीमोदी शिंकुनला गुहामार्ग परियोजनायाः प्रथम विस्फोटमपि दृश्यश्रव्य प्रणाल्या करिष्यति। लेहनगरं प्रति सर्वविधरितौ सम्पर्कं प्रदातुं निमु पदुम दर्चा मार्गे प्रायः एषा गुहा निर्मिता भविष्यति। शिंकुनला गुहामार्गः न केवलं अस्माकं सशस्त्रसेनानाम् उपकरणानां च द्रुतगत्या प्रापयिष्यति, अपि तु लद्दाखस्य आर्थिक सामाजिक विकासम् अपि पोषयिष्यति। विदेशमन्त्री डॉ एस जयशंकरः आसियान संघटन सभासु भागं ग्रहीतुं त्रिदिवसीय यात्रायै लाओस नगरं प्राप्तवान्। विदेशमन्त्री डॉ एस जयशंकरः एतासु सभासु भागं ग्रहीष्यति तथा च सामाजिक माध्यमेन सह सूचनां प्रदत्तवान् यत् भारतस्य एक्ट ईस्ट नीतेः दशकस्य अवसरे आसियान संघटनेन सह भारतस्य सम्बन्धान् अधिकान् सुदृढान् कर्तुं सः उत्सुकः वर्तते। विदेशमन्त्री अन्यदेशेभ्यः स्वसमकक्षैः सह अपि आसियान सम्बद्ध समागमानाम् अन्तर्गतं वियन्तिया नगरे द्विपक्षीय समागमं करिष्यति इति अपेक्षते। विदेशमन्त्रालयेन उक्तं यत् आसियान केन्द्रितक्षेत्रीय वास्तुकलायां भारतस्य गहनसंगतिः महत्वपूर्णं रेखांकनं करोति। संस्कृतवार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ च न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। राष्ट्रपति द्रौपदी मुर्मू स्वकार्य कालस्य वर्षद्वय पूर्त्यवसरे अद्य डॉक्टर राजेन्द्र प्रसाद केन्द्रीय विद्यालयस्य नवम कक्षायाः छात्रान् पाठितवती। छात्रैः सह वार्तालापस्य अवसरे ताभिः आधुनिक काले उत्पद्यमानानां विभिन्न समस्यानां विषये चर्चा कृता। ऋतुपरिवर्तनस्य आह्वानानां विषये राष्ट्रपतिः छात्रान् पर्यावरणं रक्षितुं R3 अर्थात रिड्यूस रियूज रिसाइकिल इति एतेषां पालनं कर्तुं उक्तवती। इज़राइल देशस्य प्रधानमंत्री बेंजामिन नेतन्याहू अद्य अमेरिकीय संसदि संबोधनं कृतवान्। फिलिस्तीन क्षेत्रे नवमासाधिकं यावत् संघर्षस्य अनन्तरं अन्ताराष्ट्रिय आलोचनानां मध्ये सः स्वभाषणे अमेरिकीय समर्थनस्य विशेषतः चर्चां कृतवान्। नेतन्याहू उक्तवान् यत् इज़राइल बन्धकान् मुक्तान् कर्तुं तथा च तान् सुरक्षितान् आनेतुं तस्य सर्वकारः सक्रियरूपेण कार्यं कुर्वन्नस्ति। इज़राइलस्य प्रधानमन्त्रिणः भाषणं सीनेट प्रतिनिधि सदनस्य संयुक्त सभायां विदेशीय नेतृणाम् अभिलेखात्मकं चतुर्थ भाषणं वर्तते। ऋतुविज्ञान विभागेन उक्तमस्ति यत् कोंकण गोवा मध्य महाराष्ट्रस्य च कतिपय भागेषु तीव्र वर्षाणां संभावना अस्ति। विभागेन इदमपि उक्तं यत् अद्य सौराष्ट्र कच्छ विदर्भ मराठवाड़ा इत्यादिषु क्षेत्रेष्वपि उत्कट वर्षायाः संभावना। मध्यप्रदेशे च श्वः वर्षा भविष्यति। महाराष्ट्रे तीव्र वर्षाणां पुणे नगरस्य जनपदस्य नागर मार्गाः सन्ति प्रभाविताः। मुंबई नगरस्य कतिपय भागेषु जलसंचयत्वात् यातायात व्यवस्था प्रभाविता वर्तते। उपनगरीय रेल सेवापि विलम्बेन प्रचलन्ति अस्ति। गुजरात राज्ये सूरत नवसारी वलसाड अथ दमन दादरा नगर हवेली इत्यत्र च मूसलधारा वर्षाणां संभावनत्वात् काशाई संचेतना अस्ति निस्सारिता। दिल्ली प्रदेशस्य मुख्यमंत्री अरविंद केजरीवालस्य नैयायिक कारावासः अगस्त मासस्य अष्टम दिनांक पर्यन्तं राउस एवेन्यू न्यायालयेन अद्य कराधान नीति प्रकरणे विस्तारितः। श्री केजरीवालः अस्मिन् प्रकरणे केन्द्रीयान्वेषण अभिकरण सीबीआई इत्यस्य अनुशंसया न्यायवाद प्रकरणं सम्मुखीकरोति। सः तिहाड़ कारागारात् चलचित्रीय सम्मेलन द्वारा न्यायालयस्य सामुख्यं करोति। पूर्वं कराधान नीति विषये प्रवर्तन निदेशालयेन नियोजिते धनशोधन प्रकरणे सर्वोच्च न्यायालयेन केजरीवालाय अस्थायी मुक्तिः जुलाई मासस्य द्वादश दिनांके प्रदत्ता आसीत्। अस्मिन् एव प्रकरणे अद्य श्री केजरीवालस्य नैयायिक कारावासः अगस्त मासस्य अष्टम दिनांक पर्यन्तं न्यायालयेन विस्तारितः। अथ क्रीडा वार्ताः। एशिया चषक क्रिकेट प्रतियोगितायाः उपान्त्य चक्रयोः भारतं बांग्लादेशं विरुध्य तथा च श्रीलंका पाकिस्तानं विरुध्य क्रीडिष्यति। इमे उभे क्रिकेट स्पर्धे दाम्बुलायां भविष्यतः। श्रीलंका दलं ह्यः दाम्बुलायां थाईलैंडं 10-0 पराजितवत् आसीत्। गतवर्षे बांग्लादेशेन इयं प्रतियोगिता विजिता आसीत्। अन्ते मुख्य वार्ताः पुनरेकवारम्। वर्तमान वर्षस्य वित्त संकल्पना पत्रस्य विषये संसदः उभयोः सदनयोः पुनः चर्चा अद्य समारब्धा। प्रधानमंत्री नरेन्द्र मोदी श्वः कारगिल विजय दिवसस्य अवसरे कारगिल युद्ध स्मारकस्य भ्रमणं करिष्यति। विदेशमंत्री डॉ एस जयशंकरः आसियान संघटन सभासु भागं ग्रहीतुं त्रिदिवसीय यात्रायै लाओस नगरं प्राप्तवान्। भारतीय ऋतुविज्ञान विभागेन उक्तं यत् देशस्य पश्चिम मध्य भागेषु तीव्र वर्षाणां संभावना कतिपय दिनानि यावत् वर्तन्ते तथा च एशिया चषक क्रिकेट प्रतियोगितायाः उपान्त्य चक्रयोः भारतं बांग्लादेशं विरुध्य तथा च श्रीलंका पाकिस्तानं विरुध्य क्रीडिष्यति। इज़राइल देशस्य प्रधानमंत्री बेंजामिन नेतन्याहू अमेरिकायाः संसदि संबोधनं कृतवान् इति वार्ताः।